एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल प्रतिनिधि सभायाः उपवेशे आगामिनः आर्थिक वर्षस्य विनियोजितम् आयव्ययकम् आधृत्य ह्योऽपि मन्त्रालयगतम् विमर्शनम् अचलत्। विमर्शने सहभागिनः सत्तापक्षस्य सांसदाः आयव्ययके वित्तस्य विनियोजनम् विशेष विषयो नास्तीति तर्कयन्तः योजनानां चयने ध्यानम् प्रदातव्यमिति अवोचन्। इमे पूर्वाधारेण विनैव यातायात साधनेषु उत्कीर्णाङ्कानां संस्थापनात्मकः सर्वकारस्य निर्णयः असम्भवोऽस्तीति हेतोः तत् तत्कालं प्रत्यावर्तयितुम् अनुरुद्धवन्तः। विमर्शने प्रमुख प्रतिपक्षी दलस्य सांसदाः राष्ट्रस्य सन्तुलित विकासं योजयितुम् आयव्ययकेन न शक्तमिति भाषमाणः। प्रदेशगतस्य आयव्ययकस्य विनियोजन मात्रेणैव समग्र राष्ट्रं विकासस्य दिशि अग्रे वर्धयितुं न शक्यते इति धारणाम् उपस्थापयन्। इमे अवोचन् पूर्ववर्ती सर्वकारेण अग्रे सारिताः विकासस्य योजनाः आयव्ययकेन न सम्बोधिताः। प्रतिनिधि सभायाः गतदिवसीयोपवेशे सांसदाः सामयिक विषयेषु धारणां व्यक्तवन्तः। उपवेशे नेपाल कम्युनिष्ट पार्टी एमाले दलस्य सांसदः लालबहादुर थापा बाजुरा जनपदस्य बुढीगंगा नगरपालिकायां पुनर्मतदानस्य वैपरीत्येन एतस्य क्षेत्रस्य जनतायाः मतगणनायाः पक्षधरतायाः कारणेन तत्कालं मतगणना कार्यस्य प्रारम्भम् अयाचत। नेकपा माओवादी केन्द्रस्य सांसदः पूर्णा कुमारी सुवेदी बांके जनपदस्य राप्ती सोनारी स्थानस्य किशोरीयाः जन्मदिनम् आयोजयितुम् आहूय सामूहिक बलात्कारस्य घटनायां संलग्नान् अपराधिनः कठोरेण दण्डयितुम् पीडित किशोरी जीवनं संरक्षितुं च सर्वकारस्य ध्यानम् आकर्षयत्। सांसदः विमला बिक बर्दिया जनपदे वन्यजन्तूनाम् आतंकस्य निरोधनाय मार्गावरोधन क्रमे प्रहरिणा गोलिकां प्ररीत्य किशोर्याः हत्यायाः घटनां भर्सयन्ती घटनायाः अनुसन्धानम् अव्ययाचत। सामयिक विषयेषु सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् गृहमन्त्री बालकृष्ण खाण बांके जनपदस्य राप्ती सोनारी स्थानस्य बलात्कारस्य घटनायां संलग्नान् सप्तजनान् प्रहरिणा निगृह्य दण्ड प्रक्रिया अग्रे वर्धिता स्थिति अज्ञापयत्। बर्दिया जनपदे पञ्चघण्टाः यावत् अवरोधितस्य राजमार्गस्य सञ्चालनोपक्रमे आक्रुद्धस्य जनसम्मर्दनस्य नियन्त्रणार्थं प्रहरिणा गोलिकायां चालितायां किशोरी मृतेति घटनां प्रति दुःखं प्रकटयन् मन्त्री खाण सर्वकारेण गृहमन्त्रालयस्य सहसचिवस्य हरिघिमिरे भिदस्य संयोजकत्वे पञ्चसदस्यीयाम् अनुसन्धान समितिं संघटय्य अनुसन्धानं विधीयमानम् अस्तीति ज्ञापितवान्। नागरिकाणां जीवनरक्षा सर्वकारस्य प्रथमा प्राथमिकता स्थिति कथयन् गृहमन्त्री खाण बर्दिया घटनायाम् आदेशेन विना गोलिका प्रहारक प्रहरिणो विषये अनुसन्धानं भवतीति अबोधयत्। यौन हिंसायाः घटनायां निवेदन प्रस्तुतेः समयसीमायाः निरसनस्य विषये सर्वकारः अनुकूलोऽस्तीति ब्रुवन् गृहमन्त्री खाण विषयेऽस्मिन् विद्यायोगेन सह परामर्शः विधीयमानोऽस्तीति असूचयत्। सांसदाः आगामिनः आषाढमासस्य अभ्यन्तरे एव यातायात साधनेषु उत्कीर्णाङ्कानां स्थापनात्मकं यातायात व्यवस्था विभागेन प्रकाशितं प्रावधानं प्रत्यावर्तयितुम् अभ्ययाचन्त। प्रतिनिधिसभायाः गतदिवसीयोपवेशे विनियोजन विधेयक विषयकस्य विमर्शनस्य क्रमे नेपाली कांग्रेस दलस्य सांसदः गगन कुमार थापा सकल जनतया आषाढमासाभ्यन्तरे सर्वेषु यातायात साधनेषु उत्कीर्णाङ्कानां संस्थापनं तत्कालं असम्भवमस्तीति तर्कयन् एतत् प्रावधानं प्रत्यावर्तयितुम् अयाचत। सांसदः थापा उत्कीर्णाङ्कानां संस्थापनाय यातायात कार्यालये सर्वसाधारण जनानां पंक्तिं कष्टं च अवलोकयितुमपि सम्बद्ध मन्त्रिणम् अन्वरुणत्। नेकपा एमाले दलस्य सांसदः डाक्टर भीमबहादुर रावलः आषाढमासाभ्यन्तरे यातायात साधनेषु उत्कीर्णाङ्कानां संस्थापनाय यातायात विभागेन विहितस्य निर्देशनस्य विरोधपूर्वकम् अवदत्। एतद् विषयिणी अनुसन्धान प्रक्रिया शंकायाः परिदौ वर्तते। राष्ट्रिय सभाया ह्यस्तनोपवेशे चतुर्णाम सांविधानिक निकायानां वार्षिक प्रतिवेदनानि प्रस्तुतानि सन्ति। उपवेशे प्रधानमन्त्रिणः शेरबहादुर देउवा विधस्य पक्षतः पेयजल मन्त्री उमाकान्त चौधरी अधिकार दुरूपयोगानुसन्धानायोगस्य एकत्रिंशं गतार्थिक वर्षीयं वार्षिक प्रतिवेदनं लोकसेवायोगस्य गतार्थिक वर्षीयं वार्षिक प्रतिवेदनं च प्रास्तौत। एवमेव गतार्थिक वर्षीय राष्ट्रिय मानवाधिकारायोगस्य थार्वायोगस्य च वार्षिक प्रतिवेदन मन्त्री चौधरी सभायां प्रस्तुतवान्। तत्पूर्वं विशेष समये भाषमाणः सांसदाः कृषकेभ्यः यथाशीघ्रं मलस्य व्यवस्थायै च सर्वकारस्य ध्यानम् आकर्षयन्। उपवेशे सांसदद्वयं प्रकाशपन्तः रामचन्द्र राय च कृष्या समये कृषकेभ्यः मलस्य अभावोऽस्तीति भाषमाणौ एतस्याः समस्यायाः दीर्घकालिक समाधानम् अन्वेष्टुं सर्वकारस्य ध्यानम् आकर्षयताम्। सांसदः गोपी बहादुर सार्की अछामी वर्षायामेन सैव अवकरेण महामार्याः संकटोऽस्तीति चर्चय अवकरस्य उचित व्यवस्थापने ध्यानं प्रदातुं सर्वकारं अन्वरुणत्। सांसदैः राष्ट्रस्यैव ज्येष्ठ विश्वविद्यालयस्य रूपेण स्थिते त्रिभुवन विश्वविद्यालये विहितं तालबन्धनं निवारयितुम् अभ्ययाचितं वर्तते। राष्ट्रियसभायाः ह्यस्तनोपवेशे सांसदः दिलकुमारी रावल थापा पार्वती त्रिभुवन विश्वविद्यालयस्य पदाधिकारिणां कार्यकक्षे अष्टात्रिंशदधिक शतदिनेभ्यः विहितं तालबन्धनं निवारयितुं बलं प्रादात्। राष्ट्रिय सभायाः अपरोपवेशः अद्य दिवा एकवादने पुनर्वसति। सर्वकारेण प्रतिसप्ताहं दिनद्वयाय सार्वजनिकावकाश प्रदानस्य निर्णयः प्रत्यावर्तितो वर्तते। सोमवासरे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्यः संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने गृहमन्त्री बालकृष्ण खाण परीक्षणस्य रूपेण क्रियान्वितः दिनद्वयाय सार्वजनिकावकाश प्रदानस्य निर्णयः आगामिनः आषाढस्य प्रथमदिवसात् क्रियान्वयनत्वेन निरस्तीकृतोऽस्तीति ज्ञापयत्। मन्त्री खाण प्रतिसप्ताहं दिनद्वये सार्वजनिकावकाशे प्रदत्ते सति शिक्षण संस्थासु चिकित्सालयेषु च सेवा प्रवाहणे समस्या दृष्टेति हेतोः निर्णयोऽयं प्रत्यावर्तितः इति ज्ञापितवान्। उपवेशेन विश्वकोषागारात् हरितोत्थान शिलाय समावेशी विकासाय च प्राप्यमाणां 100 मिलियन अमेरिका देशीय डलर मुद्रायाः अर्थात् आसन्न द्वादशाब्ज रूप्यकाणां सहजतापूर्णां ऋण सहायतां स्वीकर्तुं वार्ता समूहस्य संगठनाय च निर्णीतं वर्तते। एतत् विक्रम वर्षीय भूपयोग नियमावल्याः अनुसारेण काष्ठमण्डपो उपत्यकायाः अभ्यन्तरे 500 वर्ग मीटर मितात् न्यून क्षेत्रफलयुतायाः भूम्याः खण्डीकरणं कर्तुं न शक्यते। नेपाल राजपत्रे प्रकाशितायाः भूपयोग नियमावल्याः अनुसारेण तराई क्षेत्रे आन्तर मधेश क्षेत्रे च 570 वर्ग मीटर मितात् न्यून वर्ग मीटर मितायाः भूमेः खण्डीकरणं कर्तुं न शक्यते। काठमाण्डौ उपत्यकया तराई क्षेत्रेण आन्तर मधेश क्षेत्रेण च विना अन्यत्र भूभागेषु च 1000 वर्ग मीटर मितायाः न्यून वर्ग मीटर युतायां भूम्यां खण्डीकरणं कर्तुं न शक्यते। परराष्ट्र मन्त्री डाक्टर नारायण खड्का निगदति राष्ट्रिय स्वार्थे आधृतां संविधानतः सन्तुलितां स्वतन्त्रां च परराष्ट्र नीतिं प्रति नेपालस्य निरन्तरं प्रतिबद्धता सन्तिष्ठते। परराष्ट्र मन्त्रालयस्य आयोजनायां नेपालस्य परराष्ट्र नीतिः विगत वर्तमान भविष्यानि इति विषये ह्य प्रथमवारं सञ्चालितां प्राध्यापक यदुनाथ खनाल प्रवचन श्रृंखलां सम्बोधयन् मन्त्री डाक्टर खड्का नेपालेन प्रतिवेशिभिः अन्यैश्च राष्ट्रैः सह राष्ट्रिय स्वार्थस्यैव आधारेण मैत्रीपूर्ण सुमधुरश्च सम्बन्धः विकास्यमानोऽस्तीति समस्पष्टयत्। प्रहरिणा अज्ञात स्रोतोभिः कोटित्रयेण 89,00,000 13,00,000 रूप्यकैः सह एको नेपाली 4 चीनदेशीय नागरिकाश्च निगृताः सन्ति। नागढुङ्गावर्तिनः प्रहरी प्रभागात् मादकौषध नियन्त्रण निकायाच्च गतेन समूहेन नुवाकोट जनपदात् काष्ठमण्डपम् आगच्छति कारयाने लचक पदार्थ निर्मिते स्यूतद्वये वित्तं संगोप्य आनयनस्य अवस्थायां ह्य इमे जनाः निगृताः वर्तन्ते। इति समाचारः।